सर्वेभ्यो नमस्कारः. अत्र वर्गस्य आरम्भः जातः. गतसप्ताहे वयम् अभ्यासपुस्तके वयम् अन्तः बहिः अपि वृक्षस्य अधः वामतः तादृशः विषयं कृतवन्तः गतसप्ताहे. अद्य तत्र एव अग्रे गच्छामः. तत्र गृहपाठः अस्ति, तदनन्तरं अग्रे यत् पुटसङ्ख्या 34 मध्ये यदस्ति तत् कुर्मः. 33 अथवा 33 मध्ये अस्ति तद् कुर्मः. गृहपाठः आसीत् वाक्यानि रचयन्तु इति. एकनिमिषः तत्र प्रथमम् आसीत् वाक्यम् अद्य शुक्रवासरः इति. तद् स्वीकृत्य अन्ये वासराः के इति लिखन्तु इति अस्ति. तत्र अद्य शुक्रवासरः अस्ति चेत् रमाबाय् भगिनी, ह्यः कः वासरः? अद्य शुक्रवासरः, ह्यः कः वासरः? ह्यः गुरुवासरः. अस्तु, हा. हर्षिता भगिनी, परह्यः कः वासरः?
परह्यः बुधवासरः.
परह्यः बुधवासरः. समीचीनं भगिनी. हा, नरेश महोदय, प्रपरह्यः? मङ्गलवासरः. समीचीनं. चल भगिनी, श्वः कः वासरः?
श्वः शुक्रवासरः.
हा, समीचीनं भगिनि. आरती भगिनि, परश्वः कः वासरः?
भानुवासरः.
हा, अपि वेणुगोपाल् महोदय, प्रपरश्वः कः वासरः? अस्तु अस्तु अस्तु, शृणोति चेत् शृण्वन्तु. अनन्तरं यदि
I'll be joining in a few minutes.
अस्तु अस्तु अस्तु, चिन्ता मास्तु महोदय. अस्तु अस्तु, रमाबाई भगिनी, भवती एव वदति वा प्रपरश्वः कः वासरः इति?
प्रपरश्वः सोमवासरः.
सोमवासरः, समीचीनं भगिनि. अस्तु, समीचीनं. हा, अपि गृहपाठ अन्यत् गृहपाठ अस्ति, पुटसङ्ख्या 30 अधोभागे कोष्टकं यदस्ति तद् उपयुज्य तत्र तम् एतं कम् इति यदस्ति. वृक्षः अस्ति, अहं तं वृक्षं पश्यामि. ताम् उत्पीठिका अस्ति, अहं ताम् उत्पीठिकां पश्यामि इति वाक्यः भवति. एताम् उत्पीठिकां पश्यतु, एताम् उत्पीठिकां पश्यतु इति वाक्यः भवति. हा, वंशी सुधा भगिनी, नमस्कारः.
नमस्ते महोदय, किञ्चित् विलम्बः जातः.
चिन्ता मास्तु, चिन्ता मास्तु.
इदानीं भारते एव किञ्चित् कष्टम् अस्ति.
समीचीनं भगिनि. भवती, अस्तु अस्तु, तत्र कोष्टकं पुटसङ्ख्या 30 मध्ये कोष्टकं यदस्ति तद् उपयुज्य वाक्यानि लिखन्तु इति, पञ्चवाक्यानि लिखन्तु इति आसीत्. कः प्रथमं करोति? आरती भगिनी वाक्यं वदति वा? कीदृशवाक्यं, कीदृशं वाक्यम् इत्युक्ते, अहं तां सायङ्काले पाठयामि अथवा अहं भवन्तं सायङ्काले पाठयामि, तादृशवाक्यं. यदि नास्ति चेत् चिन्ता मास्तु, अहम् अन्यं पृच्छामि.
I will try later on next time.
अस्तु 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 हा अस्तु 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 चिन्ता मास्तु भगिनि हा रमाबाई भगिनी वदति वा अस्तु हर्षिता भगिनि
अहं तं पाठयामि
अस्तु हा धन्यवादः हा धन्यवादः भगिनि हा हर्षिता भगिनि वाक्यं वदति वा
भवान् कं पाठं पाठयामि पाठयति
भवान् पाठयति समीचीनम् अस्तु हा समीचीनं समीचीनं भगिनि नरेश महोदय वाक्यं वदति वा सम्यक्तया न श्रूयते महोदय महोदय किञ्चित् उच्चैः वदतु न श्रूयते
पारितोषिकं प्रेषयति
महोदय अहं न श्रुतवान् एव न श्रूयते
भवती मां धनं ददातु
अस्तु अस्तु न न हा मह्यम् इति किन्तु अस्तु 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 माम् इति स्वीकृत्य हा तत् मह्यम् इति अस्ति तद् अग्रे पश्यामः अस्तु हा तत्र किञ्चित् परिवर्तनं हा तदपि मह्यम् इति अस्ति तत्र अन्य अन्यरूपं भवति पाठयति अथवा पाठयति एव अत्र प्रायशः समीचीनम् अस्ति
एकं पिता तां पाठयति
हा अस्तु 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 महोदय सरला भगिनी वदति वा
अहम् अन्ये वाक्यानि रचितवती अहं तम् अद्य जन्मदिवसस्य शुभाशया वदामि सः मां धन्यवाद करोति
धन्यवाद
भ्रम जातः तत्र किं
धन्यवादं धन्यवादं प्रायशः
धन्यवादं करोति
हा करोति
धन्यवादः
किन्तु धन्यवादः इति वदामः किन्तु तत्र करोति इति
यदि मां धन्यवादः इति करोति
हा धन्यवादः इति करोति इति करोति
अस्तु वयं भवन्तम् अस्माकं वाक्यानि श्रावयामः क्षम्यतां महोदय भवान् कं प्रश्नं पृच्छति न भगिनी अहं भवतीं न पृच्छामि भवान् अस्मान् शृणोति
समीचीनं भगिनि समीचीनं बहु सम्यक् अस्ति अस्तु अन्य कोऽपि वंशीसुधा भगिनी वक्तुम् इच्छति वा
आं महोदय कं वयं भजेम देवं वयं भजेम भवान् मां श्लोकं पठतु किं श्लोकम् एतत् श्लोकं पठामि वा अहं तां पठिष्यामि अनन्तरं तं पठिष्यामि
हा समीचीनं समीचीनं भगिनि हा समीचीनं हा
सीता कं पुत्री इति शक्यं महोदय सीता जनकः पुत्री इदानीं वाक्यं सम्यक् एव
तत्र तत्र प्रश्नः किम् अस्ति
सीता
कस्य
कस्य कस्य ओ या 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 तत् कस्य पुत्री जनकः पुत्री
जनकस्य
पुत्री इदानीं सः कं पृच्छति सः तं तम् एव पृच्छति अस्तु महोदय अहम्
समीचीनं समीचीनम् अस्ति भगिनि रमाबाई भगिनी अन्य अन्यानि
सन्ति
वा वदतु भगिनि
महोदय माता वदति राधा रामः कुत्र तम् आह्वय राधा वदति रामे भवन्तं माता आह्वयति रामः वदति माता किमर्थं माम् आह्वयति आहूतवती?
माता वदति रामः एतत् अनिलकोशः रिक्तम् अस्ति, नूतन अनिलकोशं स्थापयतु. अस्तु माता, नूतन अनिलकोशं स्थापितवान्. अनन्तरं किं करोमि?
समीचीनं भगिनि, समीचीनं. कर्मपदम् उपयुज्य वाक्यानि रचितवती, समीचीनमस्ति भगिनि. हा समीचीनमस्ति,
धन्यवादः.
अस्तु, हा रघुपतिमहोदय नमस्कारः. भवान् अपि वक्तुम् इच्छति वा वाक्यानि?
हा महोदय.
अस्तु, हा वदतु महोदय.
गतकक्षायां न आगतवान्, अहं कृतवान् एतानि शब्दानि उपयुज्य करणीयेन वाक्यं, वाक्यानि
तं ताम् एतम् एता.
ओके ओके ओके. एत मम मम गृहे एकः सन्यासी आगतवान्, अहं तं सत्कृत्य प्रेषितवान्.
हा समीचीनं महोदय, बहु समीचीनमस्ति.
मम उद्याने एका धेनुः आगतवती, अहं ताम् आहूय तृणानि अवशिष्टानि अन्नानि अपि दत्तवान्.
हा समीचीनं महोदय.
मम सकाशे कृष्णस्य चित्रम् आसीत्, अहं तत् चित्रं मम मित्रै दत्तवान्.
मित्राय इति भवति,
मित्राय ओके, मित्राय ओके. एतं शुनकं भ्रमणाय उद्याने नयतु.
भ्रमणाय उद्यानं नयतु, समीचीनं महोदय.
उद्यानं नयतु, उद्याने उद्यानं ओके, उद्यानं नयतु ओके. एतां बालिकां पश्य, एतत् पुष्पं कुतः आनीतवान्?
हा समीचीनं महोदय. अस्तु,
रामः कं राक्षसं मारितवान्?
समीचीनं.
विराटकोहली कां परिणीतवान्?
ओ समीचीनं महोदय. अस्तु,
त्वं किं पुस्तकं पठन्नसि? अहं भवन्तं अहं भवन्तं चित्रमन्दिरे दृष्टवान्.
समीचीनं महोदय, बहु समीचीनम्.
अहं भवतीं मम गृहे आगन्तुम् आह्वयामि.
भवतीम् आह्वयामि मम गृहे, मम गृहम् आगन्तुम् इति. आगन्तुम् इति कर्मपदम् तत् क्रियापदमस्ति. तत्र मम गृहम् आगन्तुम् इति कर्मपदं तत्र भवति. मम गृहम् आगन्तुं
गृहं
मम गृहम् आगन्तुं भवति अहम् आह्वयामि.
शाकादिकं क्रेतुं मम भार्या माम् आपणे प्रेषितवती.
हा तदपि समीचीनं, बहु सम्यक् अस्ति महोदय. धन्यवादः. धन्यवादः महोदय. अस्तु अस्तु, इदानीम् अग्रे गच्छामः. तत्र पुटसङ्ख्या 33 मध्ये मध्ये न अधोभागे किम् अस्ति इति के पठन्ति? अस्तु पश्यामः. हर्षिता भगिनी अपि आरती भगिनी पठतः वा पुत्रः अपि पिता इति
भवती
पुत्रः अस्तु आरती भगिनी
पिता
अस्तु पठन्तु
एतत् लोकायनं कुतः आगतम्
मैसूरुतः आगतम्
इतः कुत्र गच्छति
इतः मैसूरु गच्छति
ततः कदा आगमिष्यति
ततः श्वः आगमिष्यति
एते जनाः किं कुर्वन्ति
एते इतस्ततः सञ्चरन्ति
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 हा समीचीनं हा अस्तु तत्र इतः ततः कुतः अपि तः इति अस्ति इतस्ततः अग्रिमपुटे यदस्ति तस्य एव अभ्यासः अपि प्रयोगस्य उदाहरणानि तत्र दत्तानि सन्ति तत्र इतस्ततः इत्युक्ते इतः ततः इतस्ततः हियर् अण्ड् देर् आर् अरौण्ड् सो इतस्ततः दे आर् नाट् गोयिङ्ग् इन् एनी डिरेक्षन् इतः गच्छन्ति ततः अपि गच्छन्ति दे आर् जस्ट् गोयिङ्ग् अरौण्ड् इतस्ततः इतः इतः मैसूरु गच्छति मैसूरुनगरं गच्छति अथवा कुतः आगतं फ्रम् वेर् फ्रम् वेर् कुत्र इस् वेर् कुतः फ्रम् वेर् ततः फ्रम् देर् इति भवति इतः फ्रम् हियर् इति भवति इतस्ततः तु हियर् अण्ड् देर् अत्र कोष्टके दत्तमस्ति समीचीनं रूपं किम् अस्ति इति अत्रतः इति न भवति इतः एव भवति तत्रतः न भवति ततः कुत्रतः इति न कुतः अपि उपरितः तादृशः न भवति उपरिष्टात् इति भवति तत्र तद् यत् इतः कुतः तत् यदस्ति तदपि तस्य अभ्यासः एव अग्रिम अभ्यासः 9.2 यदस्ति तत्र वंशीसुधा भगिनी पठति वा अग्रिम 9.2
आं महोदय किं पठामि महोदय
तत्र शङ्करः बेङ्गलूरुतः इति रक्तवर्णे यदस्ति
शङ्करः बेङ्गलूरुतः शृङ्गेरी गतवान् शृङ्गेरीतः धर्मस्थलं गतवान् धर्मस्थलतः मङ्गलूरु गतवान्
मङ्गलूरु गतवान् समीचीनं भगिनि अग्रे रमाबाई भगिनी अग्रे मङ्गलूरुनगरतः इति वदतु मङ्गलूरुनगरतः नगरतः मङ्गलूरुनगरतः
कुत्र अस्ति बेङ्गलूरुनगरतः शृङ्गेरि
न न न मङ्गलूरु इदानीं मङ्गलूरु मङ्गलूरुनगरः
एकनिमिषं महोदय मङ्गलूरुतः अनन्तशयनं
मङ्गलूरु गतवान्
मङ्गलूरुतः अनन्तशयनं गतवान्
अनन्तशयनतः एकनिमिषं भगिनि तावदेव सम्यक् अस्ति किन्तु मङ्गलूरुतः प्रायशः बेङ्गलूरुतः इति तादृश अपि तत्र मैसूरुतः इति दत्तमस्ति अतः तत्र विकल्पः अस्ति मङ्गलूरुतः इति वक्तुं शक्नुमः अथवा मङ्गलूरुनगरतः तदपि वक्तुं
शक्नुमः
तत् प्रायशः समीचीनम् अस्ति इदानीं वाक्यं वदतु शङ्करः इति शङ्करः
शङ्करः मङ्गलूरुनगरतः
समीचीनं भगिनि न न न तत् तत् तावदेव तावदेव अस्तु सरलभगिनी अग्रे
अस्तु शङ्करः अनन्तशयननगरतः कन्याकुमारीनगरं गतवान्
समीचीनं भगिनि वेणुगोपाल् महोदय वक्तुम् इच्छति वा तत्र
अस्तु महोदय शङ्करः कन्याकुमारी नगरतः रामेश्वरं गतवान्।
समीचीनं महोदय, समीचीनं। भानुचैतन्य महोदय, इदानीं श्रूयते वा?
आम्, इदानीं श्रूयते, इदानीमेव फोन्।
अस्तु अस्तु अस्तु, क्षम्यताम्, अहं न ज्ञातवान् किं करणीयम् इति। अस्तु, इदानीं वदतु महोदय। रामेश्वरं, शङ्करः
रामेश्वरं नगरतः पाण्डिचेरि गतवान्।
नगरं
शङ्करः,
शङ्करः नरेश महोदय अग्रे।
शङ्करः पाण्डिचेरि नगरतः मद्रास् नगरः
नगरं गतवान् मद्रास् नगरं गतवान्। अस्तु, वंशीसुधा भगिनी अग्रे। ओ, भवती पठितवती, क्षम्यतां, रघुपति महोदय। आमां, क्षम्यतां, रघुपति महोदय।
हा महोदय, एकनिमिषं। शङ्करः मद्रास् नगरतः तिरुपतिः गतवान्।
तिरुपतिनगरं
गतवान्।
हा, समीचीनं
महोदय। एकं संशयः अस्ति, तः इत्यस्य तत्र पञ्चमी व्यक्ति अपि
आमां, पञ्चमी एव अस्ति तत्र। पञ्चमी अतः एव अहं नगरतः इति सुलभं भवति इति सर्वदा नगरतः इति वदतु इति उक्तवान्। अस्तु,
भवान् एकमपि अन्यं संशयमस्ति, मद्रास् नगरात् बेङ्गलूरुं गच्छति,
न तत्र कुतः, तत्र मद्रास् नगरतः अथवा मद्रास् नगरतः बेङ्गलूरुनगरं गच्छति। स्टार्टिङ्ग् पायिण्ट् तु पञ्चमविभक्ति अस्ति, एण्डिङ्ग् पायिण्ट् तु द्वितीयविभक्ति मध्ये अस्ति,
परन्तु नगरम् एकं
नगरात्
बेङ्गलूरु
तत्र कर्मपदं कुत्र गच्छति इति क्रियापदम् अस्ति, तस्य एकम् एव कर्मपदम् अस्ति, बेङ्गलूरुनगरं गच्छति इति। तत्र स्वीकुर्मः, तत्र पश्यामः, सः तिरुपतिनगरतः बेङ्गलूरु गच्छति। अत्र शङ्करः गच्छति, कुत्र गच्छति? शङ्करः बेङ्गलूरुनगरं गच्छति। कुतः बेङ्गलूरुनगरं शङ्करः गच्छति? सः तिरुपतिनगरतः बेङ्गलूरुनगरं गच्छति इति भवति। अतः तिरुपति शब्दस्य विभक्ति भिन्ना, बेङ्गलूरुनगरपदस्य विभक्ति भिन्ना अस्ति। सरलभगिनी, प्रश्नः आसीत् वा तत्र?
मया अत्र दत्तमस्ति अन्तिमवर्णं बेङ्गलूरु आगतवान्, तत्र द्वितीयभक्ति न दत्तम् अस्ति, पूर्वम् इतः मैसूरु गच्छति।
किन्तु भगिनी, आमां भगिनी, अत्र बेङ्गलूरु इति अस्ति खलु, तत्र तस्य रूपं किं, तद् उकारान्त पुल्लिङ्गशब्दः वा, एतत् न जानीमः खलु। अतः एव अहं नगरम् इति तत्र उपयोगं कुर्मः चेत् सुलभः भवति।
मुद्रं दोषम् अस्ति, उपरि अपि प्रथम मैसूरु गच्छति, तत्र मैसूरु।
सत्यं सत्यम्, अतः एवं सर्वत्र नगरं स्थापित्वा वदामः इति चिन्तितवान्। नो चेत् संशयः भवति, सत्यमेव। प्रश्नः किं महोदय?
शृङ्गेरीं द्वितीयविभक्ति
हा तत्रापि शृङ्गेरीम् एव शृङ्गेरीनगरम् इति भवति अत्रापि अतः सर्वत्र अहं नगरं नगरात् अथवा नगरतः नगरं तद् सम्यक् भवति बेङ्गलूरुनगरतः अथवा बेङ्गलूरु नगरात् शृङ्गेरीनगरं गतवान् इति तद् समीचीनं भवति अन्य प्रश्नः अस्ति वा अस्तु अस्तु अतः तत्र कुतः अपि कुत्र गच्छति इति कर्मपदं रूपं भवति द्वितीयविभक्तिरूपं कुतः तत्र पञ्चमीविभक्तिरूपं भवति अस्तु अग्रे अग्रे पश्यामः भानुचेतनी महोदय पठति वा 10.1 शीघ्रं मन्दम् इति
एकनिमिषं महोदय शीघ्रं मन्दम् उदाहरणार्थम् अश्वः शीघ्रं गच्छति कूर्मः मन्दं गच्छति
हा समीचीनं महोदय उच्चैः अपि शनैः तदपि पठतु
उच्चैः शनैः उदाहरणार्थं सिंहः उच्चैः गर्जति बालिका शनैः गायति
समीचीनं महोदय अस्तु तत्र रघुपतिमहोदय अग्रिम अभ्यास यदस्ति तत्र रक्तवर्णे यत् वाक्यमस्ति तत् पठित्वा प्रथमं करोतु तत्र
एकं हा महोदय 10.1 शीघ्रं मन्दम् उच्चैः शनैः एतेषु उचितेन रूपेण रिक्तस्थानं पूरयतु सः भोजनं करोति सः मन्दं भोजनं सः मन्दं भोजनं करोति
समीचीनं समीचीनं महोदय समीचीनं अस्तु नरेश महोदय अग्रिमं करोति वा उन्मत्तः इति
उन्मत्तः उच्चैः हसति
समीचीनं महोदय उन्मत्तः उच्चैः हसति समीचीनं हर्षिता भगिनी अग्रिमं
मम माता शीघ्रं कार्यं करोति
हा समीचीनं भगिनि रमाबाई भगिनी अग्रे
भवती शनैः सम्भाषणं करोतु
हा समीचीनं भगिनि आर्ति भगिनी अग्रिमम्
आम् न शृणोमि कृपया किञ्चित् उच्चैः वदतु
उच्चैः वदतु तत्र उच्चैः उच्चैः वदतु समीचीनं भगिनि वदतु उच्चैः वदतु अस्तु वेणुगोपाल् महोदय अग्रे तत्र वक्तुम् इच्छति वा
अस्तु 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 शीघ्रं प्रार्थनं करोतु प्रस्थानं शीघ्रं प्रस्थानं करोतु विलम्बः भवति
हा समीचीनं महोदय अस्तु सरलभगिनी अग्रे
इतोपि समयः अस्ति मन्दं भोजनं करोतु
हा समीचीनम् अस्तु पुनः रघुपति महोदय पुनः
एकनिमिषं महोदय
अस्तु एतत् इति
लोकयानम् एतत् लोकयानं सर्वदा मन्दं गच्छति
हा मन्दं गच्छति अस्तु नरेश महोदय अग्रिमम्
अत्र शिशुः निद्रां करोति कृपया शनैः वदतु
हा समीचीनं महोदय हर्षिता भगिनी अग्रिमम्
सः भाषणं करोति ध्वनिवर्धकम् एव न आवश्यकं सः उच्चैः भाषणं करोति ध्वनिवर्धकम् एव न आवश्यकम्
हा समीचीनं भगिनि अस्तु सर्वे वाक्यानि अवगच्छन्ति खलु अस्तु 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 हा अस्तु समीचीनम् अस्तु अग्रे गच्छामः अतः सरलभगिनी अग्रे पठति वा
अस्तु कथं सम्यक् समीचीनम् उत्तमं सुन्दरम् एतेषां प्रश्नानाम् उत्तरं लिखतु यथा आरोग्यं कथम् अस्ति आरोग्यं सम्यक् अस्ति वातावरणं कथम् अस्ति वातावरणं समीचीनम् अस्ति
समीचीनमस्ति समीचीनं भगिनि अस्तु अत्र आरतिभगिनी अग्रे करोति वा बालकः
आम् बालकः कथं धावति बालकः उत्तमं धावति
उत्तमं धावति समीचीनं हा वेणुगोपाल् महोदय अग्रे अस्तु भानुचैतन्य महोदय अग्रे
आं भवान् एतत् वस्त्रं कथमस्ति एतत् वस्त्रं सुन्दरमस्ति
हा तदपि समीचीनम् अस्तु हा रमाबाय् भगिनी अग्रे
भीमसेनजोषी कथं गायति भीमसेनजोषी सम्यक् गायति
सम्यक् गायति हा अस्तु वेणुगोपाल् महोदय वदति वा इति
अस्तु अस्तु तेण्डूल्कर् कथं क्रीडति तेण्डूल्कर् उत्तमं क्रीडति
उत्तमं क्रीडति समीचीनम् अस्तु हा इदानीं प्रश्न
महोदय वातावरणं सम्यक् अस्ति किं न वदन्ति किमर्थं समीचीनम् इति उक्तवन्तः
सम्यक् अस्ति तदपि समीचीनम् अस्ति सम्यक् समीचीनं समानार्थकपदमस्ति
उत्तमं सुन्दरम् एव समानार्थकपदं
न उत्तमम् उत्तमम् इत्युक्ते पर्फेक्ट् इति पर्फेक्ट् अथवा रियलि गुड् इति बेस्ट् इति सर्वोत्तमम् उत्तमं सुन्दरम् इत्युक्ते ब्यूटिफुल् तत्र अर्थभेदः अस्ति उत्तमं सुन्दरं तयोः मध्ये अर्थभेदः अस्ति किन्तु सम्यक् वा समीचीनं वा किमपि तत्र तयोः मध्ये भेदः नास्ति वातावरणं सम्यक् अस्ति वातावरणं समीचीनम् अस्ति समानार्थकं
महोदय महोदय एकः प्रश्नः अस्ति सर्वं नपुंसकशब्दः एव महोदय
अत्र सम्यक् समीचीनम् उत्तमं सुन्दरं तु तदेव अस्ति सम्यक् तस्य लिङ्ग तस्य पदस्य लिङ्गं न जानामि भगिनि
किञ्चित् सम्यक् समीचीनम् अर्धः समानः द्वे समानः परन्तु द्वे पदानि संस्कृतमेव न भवति अहं चिन्तयामि एकः अर्थः फर् वन् वर्ड्
तादृशं नास्ति एकम् अव्ययं भवितुम् अर्हति अन्यस्य लिङ्गः भवितुम् अर्हति अतः न वक्तुं शक्नुमः चिन्तनीयमस्ति सम्यक् प्रायशः तत् अव्यय न जानामि अहं न जानामि गतवर्गे भवती पृष्टवती खलु अपि किल तयोः मध्ये भेदः अस्ति वा इति अहं दृष्टवान् भेदः नास्ति इति मन्ये खलु किल समानार्थकपदः इति मम चिन्तनम् अस्ति
महोदय एकम् अन्यं पदमपि अस्ति साधु
साधु अपि अस्ति
तत्र समानार्थकपदम् एकम् अन्यं साधु इति अपि
सत्यं सत्यं साधु अपि तत्र वक्तुं शक्नुमः समीचीनम् अस्तु धन्यवादः महोदय अस्तु अतः विकल्पत्रयम् अस्ति तत्र सम्यक् समीचीनं साधु सत्यम् अस्तु हा सत्यम् अस्तु अग्रे गच्छामः तर्हि तत्र कः वक्तुम् इच्छति वेणुगोपाल् महोदय अग्रिमं पठितुम् इच्छति वा 10.1E एतेषाम् उत्तराणाम् अग्रिमपुटे
एतेषाम् उत्तराणां प्रश्नान् लिखतु उदाहरणं उद्यानं सुन्दरम् अस्ति उद्यानं कथमस्ति भोजनम् उत्तमम् अस्ति भोजनं कथमस्ति
तत् समीचीनं तत् अग्रे अन्य कोऽपि पठति इति धन्यवादः महोदय आरती भगिनी अग्रे
आम् आम् भोजनम् उत्तमं
तत्कृतं
आमाम् एतत् चलनचित्रं सम्यक् नास्ति एतत् चलनचित्रं कथम् अस्ति
हा समीचीनं भगिनि समीचीनं हा अस्तु नरेश महोदय अग्रे
तत् पुस्तकम् उत्तमम् अस्ति तत् पुस्तकं कथम् अस्ति
तत् पुस्तकं कथम् अस्ति समीचीनम् अस्तु हर्षिता भगिनी अग्रे
सः सर्वं कार्यं सम्यक् करोति सः सर्वं कार्यं कथं करोति
हा तदेव प्रश्नः अस्तु हा रमाबाई भगिनी अग्रे क्षम्यतां भगिनि रमाबाई भगिनी अग्रे अस्तु भानुचेतनी महोदय पठति वा अग्रे
आं महोदय एकवारं सूचयतु
तत्र रामायणं
रामायणं बहु विस्तृतम् अस्ति रामायणं कथम् अस्ति
हा समीचीनं भगिनि समीचीनं भगिनि अस्तु धन्यवादः अस्तु भानुचेतनी महोदय अग्रे किमर्थम् इति यदस्ति तत् पठतु
आम् सः किमर्थं विद्यालयं गच्छति सः पठनार्थं विद्यालयं गच्छति
हा इति अस्तु हा धन्यवादः महोदय
अग्रे
वंशीसुधभगिनी अग्रे पठतु
अत्र शब्दद्वयं लिखितम् अस्ति तत् उपयुज्य प्रश्नम् उत्तरं च लिखतु यथा योगासनम् आरोग्यार्थम् सः किमर्थं योगासनं करोति सः आरोग्यार्थं योगासनं करोति सः ग्रन्थालयं किमर्थं गच्छति सः पठनार्थं ग्रन्थालयं गच्छति
हा समीचीनं भगिनि समीचीनम् अस्तु अग्रे सरलभगिनी अग्रिमं
सः किमर्थं चिकित्सालयं गच्छति
सः चिकित्सालयं हा
चिकित्सालयं गच्छति स औषधार्थं चिकित्सालयं गच्छति
हा समीचीनं भगिनि अस्तु रघुपति महोदय वदति वा अग्रिमम्
आम् महोदय एकनिमिषं विदेशं प्रवासार्थं सः किमर्थं विदेशं गतवान् सः प्रवासार्थं विदेशं गतवान्
हा इति अस्ति तत्र किमर्थं किमर्थम् इत्युक्ते वै इति किमर्थं तत् कार्यं करोति भवती किमर्थं तत् पश्यति किमर्थम् एतं वदति सर्वत्र वयं किमर्थम् इति प्रश्नं कर्तुं शक्नुमः इदानीं कथम् इति प्रश्नवाचकशब्दं दृष्टवन्तः किमर्थम् इति प्रश्नवाचकपदं दृष्टवन्तः कदा इति अपि कः अनेकानि प्रश्नार्थकपदानि दृष्टवन्तः अस्तु अत्र
सप्तककारः अस्ति महोदय, किं कुत्र कथं किमर्थं कुतः कति कदा।
आमां समीचीनं भगिनि, सत्यं सत्यं, हा समीचीनं, सत्यं सत्यं भगिनि, हा अतः तस्य महती उपयोगः अस्ति, हा तेषां महती उपयोगः उपयोगः अस्ति, उपयुज्य वयम् अनेकानि विषयानि ज्ञातुं शक्नुमः, विषयान् ज्ञातुं शक्नुमः, अनेकान् विषयान् ज्ञातुं शक्नुमः। अस्तु, इदानीम् अहं चिन्तितवान् किञ्चित् नूतनविषयः विषयं कुर्मः, तत् अहम् एकां कथां प्रेषितवान्, लिङ्क् प्रेषितवान्।
महोदय, एकवारं पुनः सप्तककारानि वक्तुं शक्नोति वा?
आम्, वंशीसुता भगिनी वदतु, मन्दं वदतु, मन्दं वदतु।
आम् आं महोदय, किं कुत्र कथं किमर्थं कुतः कति कदा। किम् इत्युक्ते वाट्, कुत्र इस् वेर्, कथम् इस् हौ, किमर्थम् इस् वै, कुतः इस् फ्रम् वेर्, कति इस् हौ मेनि, कदा इस् वेन्।
धन्यवादः भगिनि,
धन्यवादः महोदय, धन्यवादः भगिनि। अस्तु, हा अस्तु, हा अत्र कथा अहं प्रेषितवान्, प्राप्तमिति मन्ये, लिङ्क् प्राप्तमिति मन्ये, कथा अस्ति गीतापठनं न व्यर्थम् इति, न सर्वे पश्यन्ति वा गीतापठनं न व्यर्थम् इति कथां? सर्वे लिङ्क् अहं प्रेषितवान्, अहम् अद्य लिङ्क् प्रेषितवान्, तत् सन्देशः इति, यत् संस्कृत सम्भाषणसन्देशः इति संस्कृत भारत्याः पत्रिका अस्ति, तत्र तत्र एता बालमोदिनी इति कथा अस्ति, गीतापठनं न व्यर्थम् इति। अस्तु, तत्र किञ्चित् किञ्चित् सर्वं सर्वे पठन्तु, तदनन्तरं पङ्क्तिशः पश्यामः। अस्तु
महोदय, अभ्यासपुस्तकम् अस्ति, मम नाम सुरेशः, मम नाम लता,
किं किं किञ्चित् एकवारम् 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 अहम् अहं पश्यामि।
गीतापठनं न व्यर्थम् एव महोदय।
आम् आम् अहं ह्यः प्रेषितवान् एतत् लिङ्क्, गीतापठनं न व्यर्थं
महोदय,
हा ग्रूप् टु क्लास् रिमैण्डर् इति यत् अहं श्वः प्रेषितवान् ईमेल्, तत्र प्रथमभागे एव अस्ति, प्लीस् हाव् अ प्रिण्टेड् आर् एलेक्ट्रानिक् कापि वित् यू इति लिङ्क् अहं प्रेषितवान्
महोदय।
गीतापठनं न व्यर्थम् अहं
भवान्
प्रेषितवान्,
भवान् महोदय चाट् मध्ये प्रेषयतु लिङ्क्, पुनः प्रेषयतु
पुनः। अस्तु अस्तु अस्तु, एकनिमिषः प्रेषयामि, एकनिमिषः। हा अहं प्रेषितवान्, प्राप्तं वा?
आम् प्राप्तवती।
अस्तु
महोदय, लिङ्क् ओपन् लाक् इति दृश्यति,
लाक् इति दृश्यति वा?
हा दृश्यति, आम् भवतः ईमेल् न आगतवती,
आगतं वा? न न, भगिनी एकनिमिषः, अहं
प्राप्तम् अहं
अस्तु हर्षिता भगिनी, अहं ह्यः ईमेल् प्रेषितवान्, तद् अस्ति वा?
नास्ति महोदय.
नास्ति वा? एकनिमिषः, एकनिमिषः, पुनः अहं पुनः ईमेल् प्रेषयामि, एकनिमिषः. हर्षिता भगिनी, अस्तु अस्तु अस्तु, तत् अन्य एकनिमिषः भगिनि. हा, इदानीं प्रेषितवान्, प्रायः प्राप्तमिति मन्ये. आगतं वा?
नास्ति महोदय.
नास्ति वा?
नास्ति.
इदानीं प्रेषितवान्, इदानीम् अहं हर्षिता भगिनीं प्रेषितवान्. अस्तु, अन्य कोऽपि आवश्यकमस्ति वा? कः न पश्यति? नरेश् महोदय. अस्तु 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 अस्तु, हा अस्तु. अत्र कः प्रथमतया कथा कः पठति पश्यामः. अस्तु, भानुचैतन्य महोदय किञ्चित् पठति वा? पञ्चवाक्यानि पठतु तत्र.
गीतापठनं न व्यर्थम्. श्रीमान् कृष्णप्रसादः. पर्वतस्य उपत्यकायां पौत्रेण सह कश्चन वृद्धः निवसति स्म. प्रतिदिनं प्रातः शीघ्रम् उत्थाय भगवद्गीतापठनं तस्य स्वभावः. पितामहस्य व्यवहारं दृष्टवता पौत्रेण चिन्तितं यत् मया अपि पितामहेन इव भवितव्यम् इति. अतः सः पितामहस्यैव अनुकरणम् आरब्धवान्. भगवद्गीता पठनमपि
तेन. बहु समीचीनं महोदय. अग्रे सरला भगिनी पठति वा तत्र?
अस्तु. बहुधा पठनेन अपि गीताश्लोकानाम् अर्थः तेन न अवगतः. सः पितामहम् अवदत्, पितामह भवान् एव अहमपि गीतां पठामि. पठनसमये किञ्चित् ज्ञातम् इव भवति, किन्तु पुस्तकं यदा पिहितं भवेत् तदा सर्वं विस्मर्यते. अतः गीतापठनात् कः लाभः मम? अहं गीतापठनं परित्यक्तुम् इच्छामि.
हा, समीचीनं भगिनि. अस्तु, तत्र अग्रे अपि किञ्चित् पठामः. हर्षिता भगिनी प्राप्तं वा? पठति वा अग्रे?
आम् आं महोदय. पितामहेन उत्तरं किमपि न उक्तं. सः पौत्रम् अवदत्, एतं कण्डोलं नीत्वा नदीतः जलम् आनय. पौत्रः नदीं गत्वा कण्डोले जलं प्रपूर्य गृहं प्रति प्रस्थितः. किन्तु यावत् गृहं प्राप्तं तावता कण्डोले अल्पमपि जलं न आसीत्. तदा पितामहः अवदत्, तव वेगः अपर्याप्तः, त्वं मन्दताया कार्यं करोषि, वेगेन कुरु कार्यम् इति.
हा, इति समीचीनं भगिनि. अस्तु, आरती भगिनी अग्रे.
आम् आम्. पौत्रः कण्डोले जलं प्रपूर्य वेगेन एव गृहम् आगतवान्, तथापि कण्डोले जलं न शिष्टम्. सः पितामहम् अवदत्, कण्डोलेन जलस्य आनयनं न शक्यम्, अतः अहं पात्रेण जलम् आनयिष्यामि.
हा, समीचीनं भगिनि. अस्तु, अग्रे नरेश् महोदय पठति वा?
न, कण्डोलेन एव जलम् आनेतव्यं, तदर्थं पुनः प्रयासं कुरु, असकृत् प्रयासं कुरु इति अवदत् पितामह.
धन्यवादः धन्यवादः महोदय. अस्तु अस्तु, वाक्यद्वयम् अग्रे अपि पठतु.
पौत्रेण अनेकवारं प्रयासः कृतः तथापि साफल्यं न प्राप्तम्.
अस्तु महोदय. वेणुगोपाल् महोदय अग्रे पठति वा?
पुस्तकं न पश्यामि महोदय.
पुस्तकं नास्ति महोदय, तत्र ईमेल् मध्ये अहं कथा प्रेषितवान्, तत् प्रायः न प्राप्तं.
महोदय
अस्तु 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 अस्तु, भवान् केवलं शृणोतु. अस्तु, रघुपति महोदय अग्रे पठति वा?
हा महोदय. पौत्रेण अनेकवारं प्रयासः कृतः तथापि साफल्यं न प्राप्तम्. अन्ते सः असन्तोषेण अवदत्, आर्य, मया बहुधा प्रयासः तु कृतः एव, तथापि कण्डोलेन जलम् आनेतुं न शक्तम्. सर्वः अपि प्रयासः विफलः, विफले कार्ये किमर्थं मां नियोजयति भवान्? तदा पितामहः अवदत् न अयं व्यर्थः प्रयासः, त्वया जलम् आनेतुं न शक्तम् इति तु सत्यं, तथापि प्रयासः न व्यर्थः, त्वं कण्डोलं परीक्षस्व किञ्चित् इति.
हा समीचीनं महोदय. वंशीभगिनी अग्रे पठति वा?
आम् आं महोदय. पौत्रः कण्डोलं परीक्षितवान्. पूर्वं यः कण्डोलं मलिनः आसीत् सः इदानीं स्वच्छः दृश्यते. अन्तः बहिः च शोभते सः. आश्चर्येण कण्डोलमेव पश्यन्तं पौत्रम् अवदत् पितामहः, पूर्वं यः कण्डोलः मलिनः आसीत् सः इदानीं स्वच्छः दृश्यते. जलस्य आनयनं कर्तुं न शक्तं चेदपि कण्डोलस्य स्वच्छता तु सिद्धा एव.
तावत् पर्यन्तं तावत् सम्यक् अस्ति भगिनि. रमाभगिनी अग्रे.
अस्तु महोदय. गीतायाः पठनमपि एवमेव. पठनावसरे गीतायाः सर्वेषां श्लोकानाम् अर्थः न अवगम्येत. केचन श्लोकाः विस्मृताः भवेयुः.
विस्मृताः
भवेयुः अपि. तथापि गीतापठनाभ्यासः न परित्यक्तव्यः. तत् अन्तरङ्ग बहिरङ्गयोः शुद्धिः तु अवश्यं भवति. गच्छता कालेन गीतायाः तात्पर्यस्य अवगमनात् तु जीवनोत्कर्षः सिद्धयेत् इति. नूतनं अर्थम् अवगतवान् इव पौत्रः पितामहस्य मुखमेव निर्निमेषम् अपश्यत्.
हा समीचीनं भगिनि, धन्यवादः. सर्वेषां धन्यवादः. अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः किं किम् अस्ति इति. वेणुगोपाल् महोदय,
अस्तु महोदय,
भवतः ईमेल् गुडिमेट्ले गुडिमेट्ल इति अस्ति वा?
अस्तु महोदय, अहं पश्यामि महोदय.
इदानीं पश्यति वा? अस्तु
अस्तु.
प्राप्तं वा? प्राप्तं वा इदानीं?
प्राप्तं प्राप्तं महोदय.
अस्तु अस्तु अस्तु, समीचीनम्. अस्तु, इदानीं पङ्क्तिशः पश्यामः किं किम् अस्ति इति. गीतापठनं न व्यर्थम् इति कथा अस्ति. पर्वतस्य षष्टिविभक्ति, पर्वतस्य उपत्यकायाम् उत्पीठिका अस्ति. उत्पीठिकायाम् इति दृष्टवन्तः खलु, उत्पीठिकायां पुस्तकम् अस्ति इति. तत्र उपत्यका इत्युक्ते वाली. उपत्यकायां पौत्रेण सह, पुत्रः अस्ति, पुत्रस्य पुत्रः पौत्रः. पौत्रेण सह कश्चन, सर्टन् कश्चन वृद्धः निवसति स्म. स्म इत्युक्ते भूतकाले, इदानीं न भूतकाले सः निवसति स्म. तत्र सः इति अस्ति खलु, तत्र पद सः, पौत्रेण सह रामेण सह अहं वन लक्ष्मणः वनं गच्छति इति. तत्र हकारः अपि विसर्गः, तत्र महती भेदः भवति. सः रामः, तत्र विसर्गः अस्ति, किन्तु अत्र सः पदे किमस्ति, हकारः अस्ति, विसर्गः नास्ति. तत् द्रष्टव्यमस्ति. अस्तु, सः पौत्रेण सह कश्चन वृद्धः निवसति स्म. प्रतिदिनं प्रातः शीघ्रम् उत्थाय. उत्थाय इत्युक्ते किम्?
उत्तिष्ठ.
हा, उत्तिष्ठ, बेकप्. सः उत्तिष्ठवान्, तदनन्तरम् अन्यत् कार्यमपि कृतवान्, अतः उत्थाय इति ल्यबन्तपदम् इति वदामः. हा, उत्थाय इति भवति. उत्थाय भगवद्गीतापठनं तस्य स्वभावः. सः प्रतिदिनं किं करोति, सः वृद्धः, सः प्रतिदिनं प्रातः शीघ्रम् उत्तिष्ठति. उत्तिष्ठ तदनन्तरं किं करोति, भगवद्गीतापठनं करोति. प्रतिदिनं पठनं, प्रतिदिनं भगवद्गीतापठनं सः करोति. तत्र कुतः, हा, प्रतिदिनं गीतापठनं सः करोति. पितामहस्य व्यवहारं दृष्टवता पौत्रेण. पितामहः एतत् करोति. पौत्रः अस्ति वृद्धः, पौत्रस्य पितामहः भवति. तत्र पितामहस्य व्यवहारं दृष्टवता पौत्रेण चिन्तितं यत् पौत्रं पितामहस्य व्यवहारं पश्यति. तत्र किमस्ति, दृष्टवता पौत्रेण. पौत्रेण इति तृतीया विभक्ति भवति. अहं कार्यं करोमि, मया कार्यं कृतम् इति भवति. तत् कर्तरि कर्मणि प्रयोगः इति भवति, अग्रे पश्यामः. किन्तु तत् तृतीया विभक्ति इति वदामः. दृष्टवान् पौत्रः दृष्टवता पौत्रेण इति भवति तत्र. तृतीया विभक्ति, दृष्टवता पौत्रेण. दृष्टवत् प्रातिपदिकं दृष्टवत् इति. भवत् भवता, भगवत् भगवता, दृष्टवत् दृष्टवता. पौत्रः रामः शब्दवत् रामेण, अत्र पौत्रेण इति भवति. दृष्टवता पौत्रेण चिन्तितं. सः पौत्रः चिन्तयति, सः पश्यति, पितामहस्य व्यवहारं पश्यति, अपि चिन्तयति. यत् किं चिन्तयति सः, मया अपि पितामहेन इव भवितव्यम् इति. अहमपि यत् पितामहः करोति प्रतिदिनं, तदेव अहमपि मयापि करणीयम् इति सः चिन्तयति. प्रतिदिनं शीघ्रम् उत्तिष्ठामि, तदनन्तरं भगवद्गीतापठनं अहमपि करोमि इति तस्य मनसि आगता. अतः सः पितामहस्यैव अनुकरणम् आरब्धवान्. अनुकरणम् इति फालो इति, अथवा अनुकरणं. यद् पितामहः करोति सः तदेव एषः पौत्रः अपि करोति. सः आरब्धवान्, तत् कर्तुम् आरब्धवान् प्रतिदिनं. भगवद्गीतापठनमपि आरब्धं तेन. शीघ्रम् इदानीं पौत्रः शीघ्रं प्रतिदिनं शीघ्रं प्रातः शीघ्रम् उत्तिष्ठति, तदनन्तरं सः अपि भगवद्गीतापठनं करोति. बहुधा पठनेन अपि गीताश्लोकानाम् अर्थः तेन न अवगतः. सः गीताश्लोकस्य पठनं सः कृतवान्, बहुधा पठनं कृतवान्, किन्तु गीताश्लोकानाम् अर्थः, गीताश्लोकस्य अथवा गीताश्लोकानां बहुवचने, गीताश्लोकानाम् अर्थः सः तेन न अवगतः इत्युक्ते सः अर्थं न अवगतवान्. सः किं कृतवान् तदनन्तरं? प्रश्नः अस्ति वा अत्र, यदि प्रश्नः अस्ति चेत् पृच्छतु। एतावता अस्तु अस्तु। हा सः किं कृतवान्? सः पितामहम् अवदत्। सः तम् अवदत्, सः तं पितामहम् अवदत्। यद् अभ्यासः यद् अभ्यासं कृतवन्तः तदेव अस्ति। सः तम् अथवा एतं पितामहम् अवदत्। पितामह भवानिव अहमपि गीतां पठामि। भवान् यत् करोति अहमपि तदेव करोमि, अहमपि भगवद्गीतां पठामि। पठनसमये किञ्चित् ज्ञातम् इव भवति, मम मनसि ओ एतत् अहं जानामि, एतस्य श्लोकस्य अर्थः मया अवगतम् इति तस्मिन् समये अहं चिन्तयामि, आमाम् एतत् अहं जानामि, एतत् सम्यक्तया अवगच्छामि इति भासते। किन्तु अतः किन्तु पुस्तकं यदा पिहितं, पिहितम् इत्युक्ते किं?
क्लोज़।
हा सत्यं, हा पिहितं पुस्तकं पिहितम् अथवा द्वारं पिहितं, द्वारस्य उद्घाटनं करोतु, हा पिहितं द्वार पिहितं द्वारं पिहितम् अस्ति तदपि वक्तुं शक्नुमः तत्र पिहितं
उद्घाटनं।
हा सत्यं, हा पुस्तकं पिहितम् अस्ति यदा, किन्तु पुस्तकं यदा पिहितं भवेत् तदा सर्वं विस्मर्यते। गीतापठनसमये ओ एतत् अहम् अवगच्छामि इति भासते, किन्तु यदि पुस्तकं पुस्तकस्य पुस्तकम् अत्र स्थापयामि, तत्र स्थापयामि, तदनन्तरं चिन्तयामि अहं किम् अवगतम् इति, तत्र सर्वं विस्मर्यते, ओ अर्थः अहं न अर्थं न स्मरामि इति तादृशः मनसि आगच्छति इति सः वदति। अतः गीतापठनात् कः लाभः मम? गीतापठनं प्रतिदिनं करोमि किन्तु न किमपि ज्ञानं मया न प्राप्तम्, अतः को लाभः गीतापठनस्य? गीतापठनात् कः लाभः? मम लाभः किमपि नास्ति इति मन्ये इति सः वदति। अहं गीतापठनं परित्यक्तुम् इच्छामि। परित्यक्तुम् इत्युक्ते किम्? इदानीं करोमि किन्तु अग्रे न कर्तुम् इच्छामि, तस्य लाभः नास्ति इति मन्ये, अतः किमर्थम् अहं करणीयम्, एतत् करणीयम् इति किमर्थं करणीयम् इति सः पृच्छति। अस्तु, प्रथमपरिच्छेदः तस्य अवगमनम् अस्ति वा? कोऽपि प्रश्नः अस्ति वा तत्र प्रथमपरिच्छेदे? परित्यक्तुम् इत्युक्ते स्टाक् इति, ऐ एम् गोयिङ्ग् टु स्टाप्, हा त्यक्तुं, परित्यक्तुं गीतापठनं, परित्यक्तुं ऐ एम् गोयिङ्ग् टु स्टाप्, ऐ एम् गोयिङ्ग् टु लीव् इट्, ऐ एम् गोयिङ्ग् टु लीव् अथवा स्टाप् डूयिङ्ग् दिस्, त्यजामि इति अर्थे, त्यजामि इति सत्यं सत्यं सत्यं। हा अस्तु, अग्रे गच्छामः वा? अस्तु, हा पितामहेन उत्तरं किमपि न उक्तं। पितामहः एषः पौत्रः पितामहं पृष्टवान् किन्तु पितामहः किमपि उत्तरं न दत्तवान्, उत्तरं किमपि न उक्तं पितामहेन। सः पौत्रम् अवदत्, उत्तरं न उक्तं किन्तु अन्यत् किमपि सः वदति। किं वदति वृद्धः पितामहः? एतं कण्डोलं नीत्वा नदीतः, इदानीं दृष्टवन्तः खलु मैसूरुनगरतः इति, नदीतः मैसूरुनगरतः सः बेङ्गलूरुनगरं गतवान् इति दृष्टवन्तः खलु, तदेव अत्र अस्ति। नदीतः जलम् आनय, कुतः जलम् आनय? नदीतः जलम् नदीतः जलम् आनय इति अस्ति। अस्तु, तत्र एतं कण्डोलं नीत्वा नदीतः जलम् आनय। कण्डोलम् इत्युक्ते तत्र चित्रम् अस्ति, कण्डोलम् इत्युक्ते बास्केट् इति, अस्तु कण्डोलं पौत्रः नदीं गत्वा कण्डोले जलं कण्डोले जलं प्रपूर्य गृहं प्रति प्रस्थितः सः पौत्रः किं कृतवान् नदीं गतवान् तत्र कण्डोले जलं स्वीकृतवान् पूरितवान् कण्डोलं पूरितवान् जलेन पूरितवान् तदनन्तरं सः गृहं प्रति प्रस्थितः गृहं पुनरागतवान् किन्तु यावत् गृहं प्राप्तं तावता कण्डोले अल्पमपि जलं न आसीत् गृहं सः प्राप्तवान् तदनन्तरं सः पश्यति कण्डोले अल्पमपि जलं न नास्ति तत्र तदा पितामहः अवदत् तव वेगः अपर्याप्तः इस् नाट् इनफ् अपर्याप्तः इत्युक्ते नाट् सफिशियण्ट् इति अर्थः तव वेगः अपर्याप्तः त्वं मन्दतया कार्यं करोषि वेगेन कुरु कार्यम् इति सः वदति तत् पौत्रः इदानीं दृष्टवन्तः खलु मन्दं शीघ्रम् इति तत्र यत् वृद्धः वदति भवान् मन्दम् आगच्छति मन्दं गच्छति इति तादृश अर्थः अत्र अस्ति अस्तु सः पौत्रः कण्डोले जलं प्रपूर्य वेगेन एव गृहम् आगतवान् इदानीं पूर्वं मन्देन आगतवान् इदानीं वेगेन सः आगतवान् तथापि कण्डोले जलं न शिष्टं डिण्ट् रिमेन् शिष्टम् इत्युक्ते डिण्ट् रिमेन् वेगेन सः आगतवान् पौत्रः किन्तु कण्डोले इदानीमपि जलं नास्ति सः पूर्वमपि जलं नासीत् इदानीमपि जलं न शिष्टं सः पितामहम् अवदत् कण्डोलेन जलस्य आनयनं न शक्यं मया न शक्यम् आनयनं न शक्यम् अतः अहं पात्रेण जलम् आनेष्यामि एषः कण्डोलः तस्य उपयोगः नास्ति कण्डोलेन जलस्य आनयनं न शक्यम् अहम् एतत् कर्तुं न शक्नोमि कण्डोलेन जलस्य आनयनं न कर्तुं शक्नोमि अहं जलं पात्रेण आनेष्यामि इति सः वदति किन्तु पितामहः किं वदति न कण्डोलेन एव जलम् आनेतव्यं कर्तव्यं ज्ञातव्यं एतत् कर्तव्यं यु हाव् टु डू तादृश अत्रापि आनेतव्यम् इट् हेस् टु बि ब्राट् ओन्ली बै बास्केट् कण्डोलेन एव जलम् आनेतव्यं तदर्थं किमर्थं जलं कण्डोलेन एव आनेतव्यं तदर्थं पुनः प्रयासं कुरु भवान् पुनः प्रयासं कुरु असकृत् प्रयासं कुरु एफर्ट् असकृत् इत्युक्ते एकनिमिष न स्मरामि किन्तु अनेकवारम् इति अनेकवारं मेनि मेनि अथवा अनेकवारम् इति असकृत् प्रयासं कुरु इति अवदत् असकृत् झटिति नास्ति इति मन्ये
इति झटिति
असकृत् रिपीटेड्लि मेनि टैम्स् इति असकृत् प्रयासं कुरु इति अवदत् पितामहः अस्तु पौत्रेण अनेकवारं प्रयासः कृतः प्रयासः सः पौत्रः अनेकवारं प्रयासं कृतवान् तेन पौत्रेण अनेकवारं प्रयासः कृतः तथापि प्रयासः इत्युक्ते अटेम्प्ट्स् रिपीटेड् अनेकवारं प्रयत्नम् अनेकवारं सः प्रयत्नं कृतवान् तथापि साफल्यं न प्राप्तम् अन्ते सः असन्तोषेण अवदत् आर्या पितामह मया बहुधा प्रयासः तु कृतः एव तथापि कण्डोलेन जलम् आनेतुं न शक्तम् सर्वः अपि प्रयासः विफलः विफले कार्ये किमर्थं मां नियोजयति भवान् एतत् कार्यं विफलं एतत् यदि अनेकवारम् अहं करोमि किन्तु साफल्यं न प्राप्नोमि अतः किमर्थम् अहम् एतत् विफलं कार्यं करणीयं किमर्थम् एतत् करणीयम् इति भवान् वदति विफले कार्ये किमर्थं मां नियोजयति भवान् इति अर्थम् अवगतं वा सर्वैः अस्तु अस्तु अग्रे गच्छामः तदा पितामहः अवदत् नायं व्यर्थः प्रयासः एषः प्रयासः व्यर्थः नास्ति न अयं प्रयासः व्यर्थः त्वया जलम् आनेतुं न शक्तम् इति तु सत्यं कण्डोलेन जलं त्वया न त्वं जलं
आनेतुं
आनेतुं न शक्तं भवान् तु एतत् आनेतुं तस्य भवतः प्रयासः विफलः आसन् किन्तु अतः तथापि किमस्ति प्रयासः न व्यर्थः एतत् विफलः इति न वक्तुं शक्नुमः जलं तु नास्ति किन्तु तद् विफलः इति न वक्तुं तद् व्यर्थः नास्ति किमर्थं त्वं कण्डोलं परीक्षस्व किञ्चित् कण्डोलं पश्यतु सम्यक्तया पश्यतु तस्य परिशीलनं करोतु परीक्षस्व किञ्चित् परीक्षस्व इति पितामहः पौत्रं वदति पौत्रः कण्डोलं परीक्षितवान् पूर्वं यः कण्डोलः मलिनः आसीत् सः कण्डोलः इदानीं स्वच्छः दृश्यते अन्तः बहिः अपि शोभते सः कण्डोलः कण्डोलेन जलम् आनेतुं न शक्तवान् पौत्रः सः चिन्तितवान् कण्डोलेन एतत् आनेतुं न शक्यम् इति किन्तु किम् इदानीं किम् अभवत् कण्डोलः स्वच्छः अभवत् इदानीम् आश्चर्येण कण्डोलम् एव पश्यन्तं पौत्रम् अवदत् पितामहः पश्यन्तं शत्रान्तरूपम् इति वदामः अग्रे गच्छामः अग्रे पश्यामः एतत् पूर्वं यः कण्डोलः मलिनः आसीत् सः एव कण्डोलः इदानीं स्वच्छः दृश्यते जलस्य आनयनं कर्तुं न शक्तं चेदपि कण्डोलस्य स्वच्छता तु सिद्धा एव एतत् कण्डोलः इदानीं स्वच्छः अस्ति पूर्वं मलिनः आसीत् एषः कण्डोलः जलस्य विषयं त्यजामः किन्तु इदानीं कण्डोलः स्वच्छः अस्ति जलस्य आनयनं कर्तुं न शक्तं चेदपि कण्डोलस्य स्वच्छता तु सिद्धा एव स्वच्छता सिद्धा सिद्धा विशेषणं भवति स्वच्छतापदस्य सिद्धा एव गीतायाः पठनमपि एवम् एव पठनावसरे गीतायाः सर्वेषां श्लोकानाम् अर्थः न अवगम्येत एकं श्लोकं पठामः तस्य अर्थः भवति किन्तु अन्यश्लोकं पठामः तस्य अर्थः न अवगच्छामः एतत् भवति किन्तु केचन श्लोकार्थाः विस्मृताः भवेयुः अपि पठनसमये ओ एतत् अवगच्छामः किन्तु तदनन्तरं न स्मरामः एतत् अपि भवति तथापि चिन्ता मास्तु तथापि किं भवति गीतापठनाभ्यासः न परित्यक्तव्यः किमर्थं तत्र तस्य लाभः नास्ति इति न चिन्तनीयः किमर्थं ततः गीतापठनाभ्यासः यत् कुर्मः तस्मात् कः लाभः इत्युक्ते तदेव ततः तस्मात् कारणात् गीतापठनस्य कारणात् किं भवति अन्तरङ्गबहिरङ्गयोः शुद्धिः तु अवश्यं भवति स्मरणं न भवति अवगमनं न भवति भवतु नाम किन्तु शुद्धिः तु भवति अवश्यं भवति गच्छता कालेन इन् कोर्स् आफ् टैम् गच्छता कालेन गीतायाः तात्पर्यस्य अवगमनात् तु जीवनोत्कर्षः सिद्ध्येत् इति सो जीवनोत्कर्षः एतत् लैफ्स् एम् अथवा बेटर् लैफ् इति तत् तादृश अर्थः तत्र अस्ति गीतायाः तात्पर्यस्य अवगमनात् गच्छता कालेन गीतापठन अभ्यासः यत् कुर्मः तस्मात् तस्य तात्पर्यस्य अवगमनमपि भवति तस्मात् जीवनोत्कर्षः अपि सिद्ध्यति इति पितामहः पौत्रं वदति नूतनम् अर्थम् इदानीं पौत्रः एतत् सर्वम् अवगच्छति एतत् नूतनम् अर्थम् अवगतवान् इव पौत्रः पितामहस्य मुखम् एव निर्निमेषम् अपश्यत् निर्निमेषम् इत्युक्ते वितौट् ब्लिङ्किङ्ग् निर्निमेषम् उन्मेषः इति अनेकाः श्लोकाः उन्मील्य तादृशरूपं तत्र निर्निमेष वितौट् ब्लिङ्किङ्ग् निर्निमेषम् अपश्यत् इति अस्ति अस्तु तत्र प्रश्नः अस्ति वा सर्वे अवगच्छन्ति वा गीतापठनं न व्यर्थम् इति चिन्तयन्ति वा सर्वे
सम्यक् पाठं महोदय
हा अस्तु
बहु उत्तमं तथा अस्ति
धन्यवादः अतः एव स्वीकृतवान् बहु समीचीनम् अस्ति इति अस्तु न तत्र पुनरेकवारं
महोदय
उपत्यका इत्युक्ते वाली 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 पर्वतः अस्ति पर्वतस्य उपत्यका उपत्यकायाम् उत्पीठिकायाम् उपत्यकायां सप्तमीभक्ति तदेव अस्ति तत्र अस्तु किञ्चित् समयः अस्ति तत्र किमपि प्रश्नः अस्ति चेत् तत् कर्तुं शक्नुमः
प्रश्नानि पृच्छतु
अस्तु अस्तु हा अस्तु एतद् हा वृद्धः कुत्र निवसति
वृद्धः पर्वतस्य उपत्यकायां निवसति
सत्यं हा केन सह वृद्धः निवसति
पौत्रेण सह
पौत्रेण सह निवसति अस्तु पितामहः प्रतिदिनं किं करोति
भगवद्गीता पठनं
प्रातः
शीघ्रम् उत्थाय भगवद्गीता पठनं करोति अस्तु एतत् व्यवहारं कः पश्यति पितामहस्य व्यवहारं कः पश्यति पौत्रः किं चिन्तयति
पौत्रः चिन्तयति मया अपि पितामहस्य इव कर्तव्यं
पितामहेन इव कर्तव्यं भवितव्यं समीचीनं अतः पौत्रः किं कृतवान्
शरीर
अनुकरणं कृतवान्.
पितामहस्य पितामहस्य अनुकरणं कृतवान्. समीचीनं.
भगवद्गीतापठनं
आरब्धवान् सः. समीचीनं समीचीनम् अस्तु. सः अस्तु. इदानीं पौत्रः प्रातःकाले किं कृतवान्? प्रातःकाले
पौत्रः
भगवद्गीतापठनं कृतवान्. अस्तु. भगवद्गीतापठनं सः कृतवान्. तदनन्तरं किम् अभवत्?
गीता श्लोकान् न स्मरति. ततः सः चिन्तवान्.
एकम् तत्र मन्दं गच्छामः. तत्र किम् अवगतः? तत्र बहुधा पठनेन अपि गीताश्लोकानाम् अर्थः तेन न अवगतः. तत्र पौत्रः इति वाक्यं वदामः. पौत्रः गीताश्लोकानां अर्थं न अवगतवान्. पौत्रः गीताश्लोकानाम् अर्थं न अवगतवान्. अस्तु, समीचीनं वा? अस्तु. अतः सः किं कृतवान्?
अतः सः गीतापठनं प्रत्युम् इष्टवान्.
त्यक्तुम् इष्टवान्. अहं सः पौत्रः किं कृतवान्? पृष्टवान् प्रश्नं पृष्टवान्. अहं
गीतापठनात् को लाभः,
कः लाभः इति सः पृष्टवान्. तत् परित्यक्तुम् इच्छामि इति अपि सः उक्तवान्. समीचीनम्. अस्तु, अग्रे पितामहः उत्तरं दत्तवान् वा? प्रश्नस्य उत्तरं दत्तवान् वा?
किमपि
न उत्तरं न दत्तवान्. किन्तु किमपि अन्यत् कृतवान् वा?
एकं कार्यं दत्तवान्.
पौत्रः अस्ति, तस्मै एकं कार्यं पितामहः दत्तवान्. किं कार्यं दत्तवान् सः?
सः उक्तवान् कण्डोलं नीत्वा नदीतः जलम् आनय.
सः कण्डोलम् एकं कण्डोलं स्वीकृतवान्. तं कण्डोलं पौत्राय दत्तवान्. अपि उक्तवान् किम्? एतत् कण्डोलं नीत्वा
कण्डोलेन जलम् आनय इति उक्तवान्.
कण्डोलेन जलम् आनय इति उक्तवान्. समीचीनं. इदानीं पौत्रः नदीं गतवान् वा? पौत्रः तत्र कण्डोले कण्डोलं जलेन पूरितवान् वा सः? कण्डोले जलं कण्डोलं जलेन पूरितवान् सः. तत्र नदी सः नद्या नदी समीपे अस्ति. कण्डोलं सः जलेन पूरितवान्. तदनन्तरं किं कृतवान् पौत्रः? न सः पूरितवान्. तदनन्तरं सः किं कृतवान्? सः गृहं पुनरागतवान्. प्रस्थितः इत्युक्ते प्रस्थवान् इति सः आरब्धवान्. गृहं गन्तुम् आरब्धवान्, प्रस्थितवान् इति वदामः. I have started इति अर्थे प्रस्थितवान्. प्रस्थितवान् सः गृहं पुनर्
महोदय, प्रस्थानं कृतवान् इति सम्यक् वा?
तदेव प्रस्थानं कृतवान्. तदेव पौत्रः प्रस्थितः, गृहं प्रति प्रस्थितः. पौत्रः गृहं प्रस्था तदेव तदेव अर्थः भगिनि. तदनन्तरं किम् अभवत्? यदा सः गृहं प्राप्तवान् अपि कण्डोलं दृष्टवान्, कण्डोले जलम् आसीत् वा? किमपि नासीत्. तदा
भवान् वेगेन गच्छतु, पुनः आनयतु.
हा इति अस्तु. तत्र अस्तु, समयः जातः. अग्रे एतत् अग्रिमवर्गे एतत् पुनः कुर्मः. एतत् कथां पुनरेकवारं पठन्तु सर्वे. एका सूचना अस्ति. अग्रिमसप्ताहे वर्गः न भवति. अहं जपान् देशं गच्छामि, अतः एकसप्ताहः, अतः अग्रिमसप्ताहे वर्गः न भवति. तदनन्तरं मङ्गलवासरे वर्गः भवति निश्चयेन. अस्तु अस्तु अस्तु. सर्वे यदि प्रश्नः नास्ति चेत् विरमाम.
धन्यवादः.
गृहपाठः अपि एतत् वर्गस्य मुद्रणम् अहं प्रेषयामि, ईमेल्
प्रेषयामि.
न श्रूयते भगिनि.
धन्यवादः.
भवान् द्विवारं गृहपाठं वदतु महोदय.
अहं गृहपाठम् एतत् ईमेल् मध्ये प्रेषयामि.
हरि ओम्
ईमेल् मध्ये प्रेषयामि. गृहपाठम् ईमेल् मध्ये प्रेषयामि. अस्तु, सर्वेभ्यः नमस्कारः.
धन्यवादः.
धन्यवादः.
नमस्कारः. धन्यवादः. धन्यवादः महोदय. अग्रिमवर्गं द्वादशदिनाङ्कः किम्?
न, द्वादशदिनाङ्कः नास्ति.